प्रणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोदिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशं ताभिचाकशे यामिशं गिरिशं तवस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवे न वचसा त्वा गिरिशाच्चा वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुंसुमना असत् अध्यवोचदधि भक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ व्यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुं रुद्रा अभितो दिक्षुः श्रिताः सहस्रशो वैशागुं हेड एमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूता निसदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रपुञ्च धन्वनस्त्वमुभयोरात्मयोर्ज्या याश्च ते हस्त इषवः पराता भगवो वपा अवदत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निषेद्य शल्यानाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्या तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय ಸಾತ್ವಿಕಾಗ್ನಿ ಕಾಲಾಯ ಕಾಲಾಗ್ನಿ ರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸಸ್ಪಿಂಜರಾಯ ತ್ವಿಷೇಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಬಭ್ಲುಷಾಯ ವಿದ್ಯಾಧಿನೇನ್ನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೇತಿನೆ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತ್ಯೇ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತಥಾ ವಿನೆ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯ ದೇಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕೃಷ್ಣವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಸ್ಸಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿನ ಇಷು ಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಶತೇ ಪರಿವಂಶತೇ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೆ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಶ್ರಿಕಾಭಿಭ್ಯೋ ಜಿಘಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರದ್ಭ್ಯಃ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಇಶು ಮದ್ಭ್ಯೋ ಧನ್ವಾಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವೃಷಜದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯಶ್ಚ ಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಸ್ಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯಸ್ತೃಗುಂಹತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಘೃತ್ಸೇಭ್ಯೋ ಘೃತ್ಸಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯಸ್ಸೇನಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ. కులాలేభ్య కర్మారేభ్యశ్చ భో నమో నమః పుణ్యస్తేభ్యో నిషాదేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ భో నమో నమో మృగయుభ్యశ్వణిభ్యశ్చ భో నమో నమ స్వభ్యశ్వపదిభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రియాయ చ ప్రథమాయ చ నమ ఆశవే చాజిరాయ చ నమ శీఘ్రియాయ చ శీభ్యాయ చ నమ ఊర్మ్యాయ చ వస్వన్యాయ చ నమ శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో బర్మిణే చ వరూథినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణి చేషుధిమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ భట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈర్ధ్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో అంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః తార్క్యాయ చాలాద్యాయ చ నమః షష్ప్యాయ చ ఫేన్యాయ చ నమః సికత్యాయ చ ప్రభాహ్యాయ చ నమః హిరణ్యాయ చ ప్రపథ్యాయ చ నమః కిగుంశిలాయ చ క్షయణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమోపగురమాణాయ చాభిఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమః ఆనిర్హతేభ్యో నమః ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభిర్మా రోమో ఏషాం కించనామవత యాతే రుద్ర శివా తను శివ విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయానో మృడజీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమ సద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చయోశమనురాయ జే పితా తదశ్య మతవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధేః పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన హేమాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వధేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోఘ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుమ్నమస్మేతే అస్తు రక్షాచనో అధి చ దేవ భ్రూహ్యధాచన శర్మ యచ్చద్విబర్హా స్తుహి శ్రుతం గర్థ సదయ్యుబానం మృగన్న భీమముపహత్తు ముగ్రం మృడా చరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరినో రుద్రస్య హేతిర్వృణక్తు పరిత్వేషస్య దుర్మతిరఘాయో అవస్థిరా భగవద్భ్యస్తనుష్వమీద్వస్తోకాయతనయాయ మృడయా మే దుష్టమ శివతమ శివో న సుమనా భవ పరమే వృక్ష ఆయుధన్ నిధాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహే వికిరిడ విలోహిత నమస్తే అస్తు భగవః యాత్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవ పరాచీనాముఖాకృతి सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुं सहस्रयो जने वधन्वानि तन्मसे अस्मिन् महत्यर्हवे तरिक्षे भव अधि नीलग्रीवा शितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा शितिकण्ठादिवगुं रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पतां पथिरक्षय ऐलभृदा यद्युधः ये तीर्थानि प्रचरन्ति श्रीकापन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्या ये एन्तरिक्षे ये दिवि ये शामण्डं वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदे चीर्दशोध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयं द्विष्मो यश्च नो द्वेष्टितं वोजं वे ददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतं पाशा मृत्योमर्त्या यहन्तवे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुः सुधन्वाजो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रं नमो भिर्देव वसुरन्दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजो यगुं शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मे दुःखामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ
शान्ति शान्ति शान्तिः ॐ गच्छय्योरावृणीमहे गातै यज्ञाय गातै यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षपुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्वशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्येनातिरोहति एतावानस्य महिमा अतोज्जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपार्धूर्ध्व उदैत् पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिदयः त्रिः सप्त समिधः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान आरण्याग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋषः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रभामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्षौर्ध्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ತಸ್ರಃ ತವೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇಹನಾಕಂ ಮಹಿಮಾನಃ ಸಚಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಸಂತಿ ದೇವಾಃ ಅದ್ಭ್ಯಃ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾಚ ವಿಶ್ವಕರ್ಮಣಃ ಸಮವರ್ತತಾಧಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದ್ರೂಪವೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಚಾನವಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನ್ನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಜನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾಃ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯಾತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ರುಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಶನ್ವಶೇ ಹೀಶ್ಚ ತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ನ್ಯೌ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾತ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾನಾ ಅಮುಂ ಮನಿಷಾನಾ ಸರ್ವಂ ಮನಿಷಾನಾ ತಚ್ಛಯ್ಯೋರಾಗೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಷಣ್ಣೋ ಅಸ್ತು ದ್ವಿಪದೇ ಷಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಹಿರಣ್ಯವರ್ಣಾಶುಚಯ ಪಾವಕಾಯ ಸುಜಾತ ಕಶ್ಯಪೋಯಾಸ್ವಿಂದ್ರಃ ಅಗ್ನೀಯಾ ಗರ್ಭಂ ದಧಿರೇ ವಿರೂಪಾಸ್ತಾನ ಪಶ್ಯಗ್ಸ್ಯೋ ನಾಭವಂತು ಯಾ ಸಾಗುಂ ರಾಜಾ ವರುಣೋ ಯಾತಿ ಮಧ್ಯೆ ಸತ್ಯಾನೃತೆ ಅವಪಶ್ಯಂ ಜನಾನಾಂ ಮಧುಶ್ರುತಶ್ರುಚಯೋ ಯಾ ಪಾವಕಾಃ ಸಾನ ಆಪಶ್ಯಗ್ಸ್ಯೋ ನಾಭವಂತು ಯಾಸಾಂ ದೇವಾ ದಿವಿ ಕೃಣ್ವಂತಿ ಭಕ್ಷಯ್ಯ ಅಂತರಿಕ್ಷೇ ಬಹುಧಾ ಭವಂತಿ ಯಾ ಪೃಥಿವೀಂ ಪಯಸೋಂದಂತಿ ಶುಕ್ರಾಸ್ತಾನ ಆಪಶ್ಯಗ್ಸ್ಯೋ ನಾಭವಂತು ಶಿವೇನ ಮಾಚಕ್ಷುಷಾ ಪಶ್ಯತಾಪಶಿವಯಾ ತನುವೋಪಸ್ಪೃಶತತ್ವಚಂ ಮೇ ಸರ್ವಾಗುಂ ಅಗ್ನೀಗುಂ ರಪ್ಸುಷದೋ ಹುವೇ ವೋ ಮಯಿ ವರ್ಚೋ ಬಲಮೋಜೋ ನಿಧತ್ತ ಪವಮಾನಸ್ಸು ವರ್ಜನಃ ಪವಿತ್ರೇಣ ವಿಚರ್ಷನಿಃ ಯಃ ಪೋತಾಸ ಪುನಾತು ಮಾ ಪುನಂತು ಮಾ ದೇವ ಜನಾಃ ಪುನಂತು ಮನವೋ ಧಿಯಾ ಪುನಂತು ವಿಶ್ವ ಆಯವಃ ಜಾತ ವೇದ ಪವಿತ್ರವತ ಪವಿತ್ರೇಣ ಪುನಾಹಿಮಾ ಶುಕ್ರೇಣ ದೇವದೀಜ್ಯತ ಅಗ್ನೇ ಕ್ರತ್ವಾ ಕ್ರತೂಗುಂ ರಣೋ ಯತ್ತೇ ಪವಿತ್ರ ಮಲ್ಚಿಷೇ अग्ने विततमन्तरा ब्रह्मतेन पुनीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैश्वदेवी पुनरि देव्यागात यस्यै बह्वी स्तनुवो वीतपृष्ठाः तया मदन्तः सधमाध्येषु वयग्स्यामपतयोरयीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरोमयोभूः द्यावा पृथिवी पयसापयोभिः ऋतावरी यज्ञिये मा पुनीता बृहद्भिः सवितस्त्रभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षैः पुरा हिमा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानी रध्येति ऋषिभिः सम्भृतगुम्रसम् सर्वगुंसपूतमश्नाति स्वधितम् मातरिष्वना पावमानीर्यो अध्येति ऋषिभिः सम्भृतगुम्रसम् तस्मै सरस्वती दुहे क्षीरगुम् सर्पिर्मधूदकम् पावमानी स्वस्त्ययनीः सुहृगा हि पयस्वतीः ऋषिभिः सम्भृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पावमानीर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवैः समाभृताः पावमानी स्वस्त्ययनीः सुधुगा हि घृतश्च्युतः ऋषिभिः सम्भृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवाः पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रः सुनीति सह मा पुनातु सोमस्वस्यावरुणः समीच्या यमो राजा प्रभृणाभिः पुनातु मा जातवेदामोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौ पृश्निरक्रमीदशनन्मातरम् पुनः पितरम् च प्रयंसुवः त्रिगुंशद्धामविराजति वाक्पदङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषस्सुवः यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्तोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुम् समिमम् दधातु बृहस्पतिर्ननुतामिमम् नो विश्वे देवा इहमादयन्ताम् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणाग्श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीदा समुद्रवती सावित्री हनो देवी मह्यङ्गी महीधरणी महोव्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिधिहा वायुमती जलशयनी श्रियं धाराजा सत्यं घोपरिमेदिनी श्वोपरिधत्तम् परिगाय विष्णुपत्नी महीम् देवीम् माधवीम् माधवप्रिया लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युतवल्लभा धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीमेनागुम् हविषाय जामः त्रेधा विष्णुरुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छोणैतिश्रव इच्छमाना पुण्यघुश्लोकम् यजमानाय कृण्वते ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उज्जहार प्राणेशिरकृत्तिवासा पिनाके ईशानो देवस्तन आयुर्दधातु तस्मै जुहोमिह विजाघृतेन बिभ्राजमानः शरीरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोरानिहायुषेणु घृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तमायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमौबलामम्बिकाङ्गाम् षष्ठीम् च यामिन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयोनिकुंसरूपामिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यस्य योन्यः सहस्रशो विश्वरूपा विरूपाः ससूनवः सपतयः स योध्य आयुषेणो घृतमिदम् जुषन्ताम् दिव्या गणा बहुरूपा पुराण आयुश्चिदो न प्रमथन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मानः प्रजागुम् रीरिषो मोत वीरान् एकः पुरस्ताद्य इदम् बभूव यथो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नोहविर्घृतमिहायुषेत्तु देवः वसून्रुद्रानादित्यान्मरुतोऽथ साध्यान्ऋभून् यक्षान् गन्धर्वागुश्च पितृगुश्च विश्वान् भृगून् सर्पागुश्चाङ्गिरसोऽथ सर्वान् घृतगुम् हुत्वा स्वायुष्यामः याम शश्वत विष्णो त्वं नो अन्तमः शर्म यच्च सहन्त्या प्रतेधा रामधुश्च्युत उत्सं दुह्रते अक्षितम् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीं महिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।